ऋषिरुवाच निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसंमितं हन्यमानं बलं चैव शुम्भाः क्रुद्धो ब्रवीद् वचः बलावलीप दुष्टित्वं मा दुर्गि गर्व मा वह अन्यासं बलमाश्रित्य जिद्धषि जातिमानिनि देव्युवाच एकैवाहं जगत्यत्र द्वितीया काममापरा पश्यैता दुष्टमध्येव विशन्त्यो मद्विभूतयः ततः समस्तस्या दिव्यब्रह्माणि प्रमुखालयं तस्या दिव्यास्तनौ जगमूरेकैवासीत्तदम्बिका देव्युवाच अहं विभूत्या बहुभिरिह रूपैर्यदा स्थिता तत्सङ्गृहीतमयैकैव तिष्ठं न्याजौ स्थिरो भव ऋषिरुवाच ततः प्रववृते युद्धं दिव्याः शुम्भस्य चोभयो पश्यतान् सर्वदेवानाम् असुराणां च दारुणं सर्वशैषितैशस्त्रैस्तदस्त्रैश्चैव दारुणै तयोद्युद्धमवुद्भूय सर्वलोकाभयङ्करम् दिव्यान्नस्त्राणि शतशो मुमुचे जान्वथम्बिका बभञ्च तानि दैत्येन्द्र स्तत्प्रतिघातकर्तृभिः मुक्तानि तेन शस्त्राणि दिव्यानि परमेश्वरि बभञ्च लीलयैव ग्रहुङ्कारोच्चारणादिभिः ततः षडशतैर्देवी मत्स्यादयत शोषुरः शापि तत् कूपिता देवी धनुश्चिच्छेदचेषुभिः छिन्ने धनुषि दैत्येन्द्र तथा शक्तिमथा ददे चिच्छेददेवी चक्रेण तामप्यस्य करस्थितां तथा खड्गमुपादाय सदाचन्द्रं च भानुमत् अभ्यधावत्तदा देवीं दैत्यानामधीदेश्वरः तस्यापदेवासु खड्गं चिच्छेदचण्डिका धनुर्मुक्तैशितैर्बाणैश्चर्मचर्ककरामलम् हताशः स तदा दैत्यः श्चिन्नधन्वाविशारथि जग्राहमुदगरं घोरमम्बिकानि धनुर्ददः चिच्छेदापततस्तस्य मुद्गरं निशितैशरै तथापि सभ्यधावत्तान् मुष्टिमुद्गम्य वेगवान् स्वमुष्टिं पातयामाश हृदये दैत्यपुङ्गवः दिव्यास्तञ्चापि सा देवी तलेनोरस्य तारयत् तलप्रहाराभिहतो निपपातमहीतले सा दैत्यराजः सहसा पुनरेव तथोत्थितः उत्पत्त्या च प्रगृच्छच्चैर्देवीङ्गणमस्थितः तत्रापि सा निराधारा जिजूढे तेन चैणिका निजुद्धं खे तदा दैत्यश्चण्डिका च परस्परं चक्रतु प्रथमं सिद्धा मुनि विस्मयकारकं ततो निजुद्धं सुचिरं कृत्वा तेनम्बिकासः उत्पत्य भ्रामयामाश चिक्षेपधरणीतले साक्षिप्तो धरणीं प्राप्य मुष्टिमुद्गम्य वेगतः अभ्यधावत दुष्टद्मा चैणिकानिधनिच्छया तमायन्तं ततो देवी सर्वदैत्यजनेश्वरं जगत्यान् पातयामाश भित्त्वा शूलेन वक्षसि स्वगता शूपपातर्व्यं देवी शूलाग्रभीक्षत चालयान् सकलां पृथ्वीं सद्भिद्दीपं सवर्वदां तदा प्रसन्नमखिलं हते तस्मिन् दुरात्मनि जगत्सास्तमतीवाप निर्मलं चाबभन्नभः उत्पातमेधा शुल्कादि प्रागासंस्ते समनजजुः सरितमार्गवाहिन्न सदा संस्तत्र पातीति ततो देवगणाः सर्वे हर्षनिर्भरमानसाः बभूवुर्निहते तस्मिन् गन्धर्वाललितं जगुः अवादयंस्तथैवन्ये नन्ऋतुश्चप्सरोगणाः बभूः पूर्ण्यास्तथा वादाः सुप्रभो भुद्दिवाकरः जज्जलूश्चारणयः सन्ताः शान्तदिग्जनितश्वनः इति श्रीमार्कण्डीयपुराणे सावर्णैके मन्वन्तरे देवी माहात्म्ये शुम्भो वधः।